एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। यम पञ्चक पर्वणः अन्तर्गतम् अद्य गोवर्धन पूजनम् सम्पाद्यमानम् वर्तते। गोवर्धन गृहि घास तोय फल पुष्पादिभिः गोवंशम् वर्धयति अमुम् स्वस्थम् दीर्घायुष्यञ्च कारयति इत्यतः इन्द्र पूजनस्य अपेक्षया अस्यैव गोवर्धन गिरेः पूजनम् परमावश्यकम् अस्तीति निगद्य भगवता श्रीकृष्णेन पुरा गोकुल पार्श्ववर्ती गिरिः प्रपूजितः, तस्य गोवर्धनम् इति नाम च प्रख्यापितम्। ततः गोमय रासौ गोवर्धन गिरेः प्रतिकृतिम् निर्माय पूजन परम्परा प्रारब्धेति पौराणिक वृत्तम् आस्ते। अद्यैव बलिराजस्य बलिनः वृषभाणां च पूजनमपि विधीयते। भगवता विष्णुना बलिराजाय यमपञ्चकस्य पञ्चदिनानि मर्त्यलोकस्य शासनाधिकार प्रदानस्य विश्वासेन ससंस्मरणं बलिराजस्य पूजाराधने विधीयते। वर्षम् हलकर्षणेन मानवहिताय कर्म कुर्वद्भ्यो वृषभेभ्यः सपूजनं मिष्टान्न प्रदानस्य प्रचलनं वर्तते। देवादिदेवस्य महादेवस्य वाहनस्य रूपेणापि वृषभस्य पूजन परम्परा वर्तते। वर्षावधि वृषभकर्षकाय हलिने कृषिकर्मणि कुर्वद्भ्य अन्येभ्य कृषकेभ्यश्च सपूजनम् मिष्टान्नानि भोज्यन्ते। अद्यैव त्रिचत्वारिंशदधिकैकशत शततमः नूतन नेपाल संवत्सरः विविधान् कार्यक्रमान् आयोज्य सम्मान्यते। संवत्सरोऽयम् सम्प्रति नेवार समुदायेन नवीन वर्षस्य रूपेण समायोज्यते। राष्ट्रिय विभूत्या शङ्क धर साख्वा विदेन सप्तत्रिंशदुत्तर नवशततमे वैक्रमाब्दे विपन्न जनतायाः ऋणम् उन्मोच्य नेपाल संवत्सरः प्रारब्धः आसीत्। उपलक्ष्यस्मिन् शुभकामना सन्देशम् ददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा राष्ट्रिय विभूत्या शङ्क धर साख्वा विदेन प्रवर्तितः नेपाल संवत्सरः चन्द्रमासम् गणयित्वा निर्धारितः मौलिक राष्ट्रिय संवत्सरोस्तीति हेतोः संवत्सरोऽयम् कार्तिक शुक्ल प्रतिपत्तिथितः प्रारभते इत्युक्तम् वर्तते। राष्ट्रपतिना भण्डारिणा सन्देशे नेपाली समाजः सभ्यः सहिष्णुश्च वर्तते एवं अस्माकं पर्वोत्सवैः एतादृशीभिः शोभन परम्पराभिः राष्ट्रियैकता अतिरिक्तं सुदृढीक्रियमाणास्तीति उल्लिखितं वर्तते। राष्ट्रपतिना भण्डारिणा सन्देशे राष्ट्रिय विभूतेः साख्वाविदस्य लोककल्याणकारी परोपकारी च कार्यं संस्मरन्त्या अस्मात् दिवसात् निस्वार्थभावेन समाजस्य उन्नत्यै प्रगत्यै च अग्रेसरा भवितुं सर्वेभ्य प्रेरणा मिलतीति विश्वासः व्यक्तोऽस्ति। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते शुभकामना सन्देशे समृद्ध नेपालस्य निर्माणाय एकीभूय अग्रे वर्धितुं सम्पूर्ण नेपालीभ्य विभिन्ना पर्वोत्सवाः ऊर्जा प्रददातु इति कामना व्यक्ता वर्तते। अद्यैव नेवार समुदाय महापूजनम् आत्मपूजनम् वा विधीयते। कार्तिक शुक्ल प्रतिपदि नेवार समुदायस्य जनाः महापूजाम् विदधा दति। अस्मिन् वर्षे ह्य अद्य च प्रतिपत्तिते कारणेन केचन ह्य अपरे अद्य च पूजामिमां कुर्वन्ति। नरस्य आत्मैव सर्वाधिक विपुलः महत्वपूर्णश्च अस्तीति हेतोः आत्मपूजनस्य परम्परा शास्त्रीय अस्तीति धर्मशास्त्रविद् प्राध्यापकः डा रामचन्द्र गौतमः निगदति। काष्ठमण्डप जनपद प्रशासन कार्यालयेन दीपावली नेपाल संवत्सर छठपर्वणाम् अवसरे राजधान्याः उपत्यकायाः सुरक्षा व्यवस्था सबला प्रभावकारिणी च वितेति ज्ञापितम् वर्तते। पर्वोत्सवानां समये सम्भावितः घटनाः दृष्टिगताः विधाय सुरक्षा व्यवस्था सबलीकृतेति काष्ठमण्डपस्य प्रमुख जनपदाधिकारी घनश्याम उपाध्यायः ज्ञापयत्। असौ पर्वोत्सव लक्षिता सुरक्षा योजना उपत्यकायाः त्रिवीरेव जनपद प्रशासन कार्यालयैः पूर्णरूपेण क्रियान्वीयमानास्तीति अवोचत। प्रमुख जनपदाधिकारिणः उपाध्यायस्य अनुसारेण देउसी भैलो कार्यक्रमं प्रस्तोतुम् इतः पूर्वं निर्धारितः रात्रौ नववादन पर्यन्तिक समयः नागरिकाणां याचनाया अनुसारेण घण्टां प्रवर्ध्य रात्रौ दशवादन पर्यन्तं निर्धारितो वर्तते। निर्वाचनायोगेन एकस्मिन् निर्वाचन क्षेत्रे त्र्यधिकान् सम्पर्क कार्यालयान् न सञ्चालयितुम् राजनैतिक दलानि प्रत्याशिनश्च निर्दिष्टाः सन्ति। आयोगेन सम्पर्क कार्यालय सञ्चालनस्य सन्दर्भे राजनैतिक दलेभ्यः प्रत्याशिभ्यश्च य प्रदत्ते सप्तसूत्रीय निर्देशने प्रतिनिधिसभायाः प्रत्याशिना स्वनिर्वाचन क्षेत्रे समाविष्टम् प्रदेश निर्वाचन क्षेत्रम् च संयोज्य अधिकतमम् त्रयैव सम्पर्क कार्यालयाः सञ्चालयितुम् शक्यन्ते इति ज्ञापितम् अस्ति। प्रदेशसभायाः समानुपातिक पक्षस्य च प्रत्याशिना प्रतिप्रत्याशी केवलम् एकः सम्पर्क कार्यालयः सञ्चालयितुं शक्यते। एकस्मादेव राजनीतिक दलात् प्रस्तुत प्रत्याशितः प्रतिनिधिसभा प्रदेशसभा समानुपातिक पक्षाणां प्रत्याशिनः यथासम्भवम् एकस्मिन् एव स्थाने कार्यालयं सञ्चालयितुं सम्पर्क कार्यालय सञ्चालनस्य सम्पूर्ण व्ययं सम्बद्ध प्रत्याशिनां निर्वाचन व्यय समावेष्टुं च आयोगेन निर्दिष्टाः सन्ति। केनापि प्रत्याशिना अपरं प्रत्याशिनं समर्थ्य प्रत्याशितायं निष्क्रियकृतायां सत्यां तादृश प्रत्याशी सम्पर्क कार्यालयं सञ्चालयितुं न शक्नोतीति आयोगस्य निर्देशने उल्लिखितं वर्तते। एवमेव केनापि प्रत्याशिना सम्पर्क कार्यालय सञ्चालिते सति तद् निर्वाचनाधिकृतस्य कार्यालयं जनपद प्रशासन कार्यालयं जनपद कार्यालयं जनपद निर्वाचन कार्यालयं च ज्ञापयितुमपि राजनीतिक दलानि प्रत्याशिनश्च निर्वाचन आयोगेन निर्दिष्टाः सन्ति। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य कृते समानुपातिक पक्षे अष्टाषष्टेः जनपदानां कृते मतपत्राणां परिवहन कार्यं सम्पन्नमस्ति। निर्वाचनायोगस्य सहायक प्रवक्तोः सूर्यप्रसाद अर्यालयस्य अनुसारेण अवशिष्टानां नवानां जनपदानां कृते यमपञ्चक पर्वणः अनुपदमेव परिवहनं विधास्यते। अधुनावधि प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षे प्रतिनिधिसभायाः कृते षट्त्रिंशतो जनपदानां प्रदेशसभानां कृते त्रयस्त्रिंशतो जनपदानां च मतपत्राणां मुद्रण कार्यं सम्पन्नमस्ति। पक्षद्वयं कृत्वा आवश्यकेषु कोटिचतुष्टये मतपत्रेषु समग्रतः कोटिद्वयस्य नवतेः सहस्राणां पञ्चशतस्य च मतपत्राणां मुद्रण कार्यं सम्पन्नमस्तीति आयोगेन ज्ञापितं वर्तते। निर्वाचन आयोगेन समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य पञ्चाशदधिक पञ्चशतस्य प्रत्याशिनां नामानि प्रत्याशिनाम् आन्तरसूचितः अपाकृतानि सन्ति। आयोगेन समानुपातिक निर्वाचनस्य कृते राजनीतिक दलैः प्रस्तुतायां प्रत्याशिनाम् आन्तरसूच्यां समाविष्टानां प्रत्याशिनां योग्यताम् अनुसन्धाय प्रत्याशितायै अयोग्य व्यक्तिनां नामानि सूचितः अपाकृतानि सन्तीति समानुपातिक प्रणाल्याः मुख्य निर्वाचनाधिकृतः आयोगस्य सचिवश्च गोकर्णमणि दुवाडी ज्ञापितवान्। विधेयनुसारेण प्रत्याशितायै अप्राप्त वयस्कानां द्विरावर्तनत्वेन प्रस्तुत प्रत्याशिनां अनर्पित दण्डन शुल्कानां च जनानां नामानि प्रत्याशिनाम् अन्तरसूचितः पाकृतानीति सचिव दुवाडी अबोधयत्। अद्य प्रत्याशिनाम् अन्तिमान्तरसूचिः प्रकाश्यमाना स्थिति आयोगेन ज्ञापितं वर्तते। प्रधानमन्त्रिणा श्रीवासदेवाभिधेन संयुक्ताधिराज्य बेलायत देशस्य कन्जर्वेटिव दलस्य नेतुः बेलायत देशस्य प्रधानमन्त्रीपदे नियुक्तिमालक्ष्य ऋषि सुनक इत्यस्मै वर्धापनं ज्ञापितं वर्तते इति समाचारः।